सकृष्टं प्रगल्भं परीशं अखण्डं अजं भानु कोटि प्रकाशं त्रयः शूल निर्मूल नं शूल पाणिं भजेहं भवानी पतिं भावगम्
श्रीरुद्राष्टकं सम्पूर्णम्।